Part 2 Review, Bhagavad Gita, Chapter 12. Arjuna Vacha Evam Satata Yukto Ye Bhaktastvam Paryupasate Ye Chapyaksharam Avyaktam Tesham ke yoga vittamah. Shri Bhagavan Uvacha. Maya vesha mano ye mam nitya yukta upasate shraddhaya parayupetas te me yukta tatamamata ye tvaksharam manirdesham avyaktam paryupasate sarvatra gamachintyam cha kutastam achalam dhruvam samniyam yendriya gramam sarvatra samabuddhayah te prapnuvanti mameva sarva bhuta hite ratha klesho dikataraste-sham avyakta sakta cetasam avyakta hi gatir dukham deha vad piravapyate yetu sarvani karmani mayi samnyasya matpara ananye naiva yogena mam dhyayanta upasate tesham aham samudharta mrityu samsara sagarat bhavami nachirat partha maya veshita chetasam mayeva mana adhatsva mayi buddhim niveshaya nivasishasi mayeva atta urvam na samshayah atta chittam samadhutam na shaknoshi mayi stiram abhyasa yogena tato mamichaptum dhananjaya abhyase pyasamarthosi matkarma paramo bhava madartham api karmani kurvan siddhim avapsyasi athaitarapyashaktosi kartum madhyogamashritah sarva karma palatyagam tata kuru yatatmavan shreyo hi jnanam abhyasaj jnanadhyanam vishishyate dhyanat karma palatyagas tyagat shantir anantaram advishta sarva bhutanam maitra karuna evacha nirmamo nirahamkara samadhukha sukhakshami santushta satatam yogi yatatma dhrida nishchayah mayarpita mano buddhir यो मद् भक्तसमे प्रियः यस्मानोद्विजते लोको लोकानोद्विजते च यः हर्षमर्षभयोद्वेगैर्मुक्तो यस्य च मे प्रियः अनपेक्षशुचिर्दक्ष उदासीनगतव्यथ सर्वारम्भपरित्यागी यो मद्भक्तसमे प्रियः यो न हृष्यति न द्वेष्टि न शोचति न कङ्क्षति शुभाशुभपरित्यागी भक्तिमान्यसमे प्रियः समशत्रौ च मित्रे च तथा मानपमानयोः शीतोष्णसुखदुःखेषु समसङ्गविवर्जितः तुल्यनिन्दस्तुतिर्मौनी सन्तुष्टो येन केनचित् अनिकेतस्थिरं मध्यर्भक्तिमान् मे प्रियो नरः ये तु धर्म्यामृतं मीठं यथोक्तं भर्युभासते श्रद्धधानमत् परमा भक्तास्थेति वा मे प्रिया।